कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं निदम्भजितभूतरां सुरनिदम्बिनी सेवितां नवां पुरुहलोचनां अभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये कदम्बवनवासिनीं कनकवल्लगीतारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीं दयाविभवकारिणीं विशतलोचनीं चारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये कदम्बवनशालया कुशपरोल्लसन्मालया कुशोपमितशैलया गुरुकृपाल सद्वेलया मदारुणकपोलया मधुरगीतवासालया कयाबिकननीलया कवचितावयं लीलया कदम्बवनमध्यकां कनकमण्डलोपस्थितां षडं पुरुहवासिनीं सततसिद्धसौदामिनीं विडम्बितजपारुषिं विकच चन्द्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये कुशाञ्चितविभञ्चिकां कुटिलकुन्तलालङ्कृतां कुचोचयनिवासिनीं कुटिलचिद्दविद्वेषिणीं मतारुणविलोचनां मनसि जारिसम्मोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये स्मरप्रदमपुष्पिणीं रुतिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मधुविकूर्णनेत्राञ्जलां घनस्तनपरोन्नतां कलितचूलिकां श्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये सकुङ्कुमविलेपनामलिकचुम्बि कस्तूरिकां समस्तहसितेक्षणां सचरचाप पाशाङ्कुशां अशेक्षजनमोहिनीं मरुणमाल्यभूषाम्बरां जपकुसुमपासुरां जपवितौ स्मरेतम्बिकां पुरन्दरपुरन्द्रिका चिकुरबन्धसैरन्द्रिकां पितामहपतिव्रता पटुपटीरचर्चारदां मुकुन्दरमणिमणि लसतलङ्क्रियाकारिणीं भजामि भुवनाम्बिकां सुरवधूटिका चेटिकां